सम्प्रति समाचारः श्रूयन्ताम्। प्रवाचकः उपेन्द्र दाहालः। प्रतिनिधिसभायाः गतदिवसीयोपवेशने एतद् वैक्रमाब्दं विनियोजन विधेयकं बहुमतेन पारितीकृतं वर्तते। अर्थमन्त्रिणा डा प्रकाश शरण महत इत्यनेन एतद् विधेयकं पारितीक्रियतामिति निगद्य प्रस्तुतः प्रस्ताव मतविभाजनात् बहुमतेन पारितोऽभवत्। प्रतिनिधिसभायां मतविभाजनस्य क्रमे प्रस्तावस्य पक्षे सप्तचत्वारिंशदुत्तरशतं, विपक्षे च अष्टोत्तरशतं मतानि व्यक्तानि। तदनु सभामुख देवराज घिमिरे एतद् विक्रमवर्षीयं विनियोजन विधेयकं पारितीकृतमिति उदघोषयत्। मतविभाजने कस्मै अपि पक्षाय मतं न ददामीति व्यवस्थायां सत्यमपि मतं न दीयते इति पक्षे कोऽपि सांसदः मतदानं नाकरोत्। गतदिवसीयोपवेशे पञ्चाशदधिक शतद्वयं सांसदाः उपस्थिताः आसन्। तत्पूर्वं प्रतिनिधिसभाया ह्यस्तने एव उपवेशे अर्थमन्त्रिणा डा महत इत्यनेन प्रस्तुतः एतद् विक्रमवर्षीय विनियोजन विधेयकस्य पारितीकरण सम्बद्ध प्रस्तावः सभामुखेन ध्वनिमतेन पारितो भवतीति उद्घुष्टम् आसीत्। परं प्रमुख प्रतिपक्षिणा नेकपा एमाले दलेन अस्वीकरणस्य पक्षे बहुमतमस्तीति वितर्क्य मतविभाजनम् अभियाचितम्। तदनु मतविभाजन प्रक्रियाम् अवलम्बितुम् निर्णीतम् आसीत्। तत्पूर्वम् उपवेशे विभिन्नैः सांसदैः प्रस्तुतानां व्यय न्यूनीकरण सम्बद्धानां प्रस्तावानां मध्ये कतिचित् प्रस्तावाः सांसदैः प्रत्यावर्तिताः, केचित् प्रस्तावाः निर्णयार्थं प्रस्तुताः सन्तः उपवेशस्य बहुमतेन अस्वीकृताः आसन्। उपवेशे पद निर्वाचन कार्यालयस्य निरसनात्मकं विषयमाधृत्य प्रतिपक्षी सांसदै विरोधो ज्ञापित। तदनन्तरं गतदिवसीय प्रथमोपवेशः सभामुखेन देवराज घिमिरे विधेन पञ्चदश कलावधे स्थगितकृतः आसीत्। स्थगनानन्तरं पुनः द्वितीयवारम् उपविष्टे उपवेशे अर्थमन्त्री डा प्रकाश शरण महत जनपद निर्वाचन कार्यालयस्य व्यवस्था यथावत् अस्थिति सदनम् अज्ञापयत्। तदनु सदनस्य कार्यप्रक्रिया अग्रे वर्धिता आसीत्। अर्थमन्त्री डा महत लोकतान्त्रिक मूल्य मान्यतासु आवधिकं स्वच्छं च निर्वाचनं भयराहित्येन सम्पादनीयमिति मान्यतायां च सर्वकारा स्पष्टो स्थिति प्रावोचत। अर्थमन्त्री डा महत पञ्चवर्षाणि एव जनपद निर्वाचन कार्यालयस्य कार्यं न भवति, अत्यावश्यक कार्यं संघीय कार्यालयात् सम्भवतीति च विचिन्त्य केवलं व्यय न्यूनीकरणस्य दृष्ट्या एतन्निराकर्तुं निर्णीतमिति तर्कयन् अतः परं कार्यालयम् अमुं यथावत् स्थापयितुं व्यवस्था विहितास्तीति अज्ञापयत्। तत्पूर्वम् उपवेशे एतद् विक्रमवर्षीय विनियोजन विधेयकस्य अन्तर्गतानां विभिन्न शीर्षकाणां विमर्शनस्य क्रमे उत्थापितान् प्रश्नान् उत्तरयन् प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड राष्ट्रस्य आर्थिकावस्था सुधारोन्मुख मार्गं प्राप्ता, आर्थिक सूचकांका अनुकूल दिशि उन्मुखा स्थिति च अज्ञापयत्। प्रधानमन्त्री प्रचण्ड पश्चात्तन समये पर्यटकानां संख्या द्विगुणेन वर्धिता, कोषागाराणां वृद्धिधनांकाः न्यूनीभूताः, राजस्व क्षरणस्य नियन्त्रणानन्तरं राजस्व परिचालनं वर्धितमिति च उदैरयत। आत्मना प्रधानमन्त्रीपदे आरोहणस्य समये आर्थिक संकटः आसीदिति चर्चयन् प्रधानमन्त्री प्रचण्डः साधारणजनैः श्रीलंकायाः परिस्थित्या सह तुलनायां विहितायां सत्यमपि सम्प्रति अर्थतन्त्रं सुदृढं जायमानमस्ति, एतच्च राष्ट्रस्य उपलब्धिरस्तीति प्रत्यपादयत्। प्रधानमन्त्री प्रचण्ड सम्प्रति सर्वेऽपि आर्थिक सूचकांकाः अनुकूल दिशि उन्मुखाः सन्तीति भाषमाणः, पश्चात्तन षट्सु मासेषु सम्पूर्ण विदेशी विनिमयस्य सञ्चितिः प्रतिशतं 0.09% वृद्धिङ्गतेति असूचयत्। कृत्रिम भूटान देशीय शरणार्थी प्रकरणे सर्वकारेण इतिहासस्यैव विपुलतमं दण्डनं विहितम्, अनेन कारणेन जनतायां विश्वास उत्पद्यमानो स्थिति च अवोचत। प्रचण्ड वैदेशिक वृत्त्युपार्जनाय गतानाम् आसन्न लक्षद्वय नागरिकाणां कतिचिन मासेषु एव सामाजिक सुरक्षा कोषे संयोजनम् ऐतिहासिकं कार्यं वर्तते। एतद् विक्रम वर्षीयस्य नेपाल नागरिकता प्रथम संशोधन विधेयकस्य राष्ट्रपतिना प्रमाणीकृत्य क्रियान्वयनेन अप्राप्त नागरिकताभिः व्यक्तिभिः नागरिकता प्राप्तास्ति। भारत बंगलादेशाभ्यां विद्युत विक्रयणस्य स्थितौ नेपालं प्रापय्य शिलातैलीय पदार्थानाम् आयातं न्यूनीकृत्य विद्युत निर्यातस्य उत्साहजनक बिन्दौ देशः प्राप्तो स्थिति च उदैरयत। अद्य हिन्दूनां पावनतिथि हरिशयनी एकादशी, भगवतो विष्णोः पूजाराधन पुरस्सरम सभक्ति आयुज्यमाना वर्तते। पौराणिक कथनस्य अनुसारेण मूर नामक दैत्यस्य आतंकादम देवता मोचयितुम कदाचित भगवता विष्णुना महान संघर्षो विहिता अथ च असो युद्धस्य परिश्रमात् विश्रान्तिम् प्राप्तुम् बदरीकाश्रमस्थिताम् हैमवती गुहाम् एत्यसहितः इति घटनायाः स्मृतौ आयोज्यमानः अद्यतनो दिवसः हरिशयनी एकादशी नाम्ना प्रथितो वर्तते। वैदिक परम्परानुसारेण अद्य प्रवृत्ति मास चतुष्टयम् यावत् भगवन्तम् विष्णुम् प्रति भक्ति प्रकटन पूर्वकम् धार्मिकानुष्ठानम् सम्पाद्यते। अद्यैव मानवाय आरोग्यदायिकाम् महौषधेः गुणसम्बलिताम् च तुलसी विरुद्धम् स्वकीय गृह प्राङ्गणेषु संरूप्य अस्याः प्रपूजनस्य प्रचलनम् विद्यते। अद्यैव इस्लाम समुदायेन परस्परं सद्भावं शुभकामनां च अभिव्यज्य विपन्न वर्गाय दान भोजनादीन पदार्थान समर्प्य च हर्षोल्लासपूर्वकं जमनं वर्तते। अस्मिन् पर्वणि प्रातरेव उत्थाय स्नात्वा शुद्धभावेन उन्मुक्त स्थानम् ईदगाह स्थलम् मस्जिदा गारम वा इत्य ईद उल अजहा नाम्नो नमाज पाठ क्रियते। परस्परम् आश्लिष्य शुभकामनायाः आदान प्रदानानन्तरम् स्वगृहम् गत्वा कुर्वानी कार्यम् च विधीयते। एतदुपलक्ष्ये शुभकामना सन्देशम् ददत् राष्ट्रपतिः रामचन्द्र पौडेलः। सामाजिक संस्कृति परम्परा रीति जाति भेषभूषाभ्याम् विविधतायुते वेशभूषाणाम् विविधतायुते अस्माकम् राष्ट्रे ईद उल अजहा बकर ईद पर्वणा धार्मिक सहिष्णुताम् सामाजिक सद्भावस्य वातावरणम् च इतोऽपि सबलीकर्तुम् सहयोगो मिलतीति विश्वसिति। उपराष्ट्रपतिना रामसाहेब प्रसाद यादवेन प्रदत्ते शुभकामना सन्देशे इस्लाम समुदायेन समायोज्यमानम् पर्वेदम् शान्तेः व्यवस्थित विकासस्य च प्रतिज्ञा प्रतिबद्धतयोः अभ्यक्तेः शुभावसरस्य रूपेण मन्तव्यमिति उल्लिखितम् वर्तते। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड स्वस्य शुभकामना सन्देशे विविधतायाः अन्तर्वर्तिनी एकता एव अस्माकम् राष्ट्रिय परिचयः गौरवम् चास्तीति कथयति। सभामुखेन देवराज घिमिरे विदेन प्रदत्ते शुभकामना सन्देशे नेपालस्य राजनीतिकान्दोलने इस्लाम समुदायेन प्रापितम् योगदानम् संस्मरता इस्लाम समुदायस्य इतिहास संस्कृत्योः परिचयाय हिताधिकारिणाम् संरक्षण संवर्धनाभ्याम् सशक्तिकरणाय च आगामी दिनानि अतिरिक्तम् उत्साहवर्धकानि प्रेरणादायिनी च भविष्यन्तीति विश्वसितम् वर्तते। नेपाली कांग्रेस दलस्य सभापति पूर्व प्रधानमन्त्री च शेरबहादुर देउवा स्वकीय सन्देशे नेपालः प्राचीन कालादेव विभिन्नानाम् जातीनाम् वसतेः संगम स्थलम् अस्तीति वदति। नेकपा एकीकृत समाजवादी दलस्य अध्यक्ष माधव कुमार नेपालः स्वस्य शुभकामना सन्देशे बहुजातीय बहुभाषिक सांस्कृतिक राष्ट्रे विभिन्न समुदायैः मौलिक पर्वसव संस्कृतीनां संरक्षणं विधातव्यमिति गदति। बकर ईद पर्वण अवसरे गण्डकी प्रदेशस्य प्रदेश प्रमुखेण पृथ्वीमान गुरूङ इत्यनेन मुस्लिम आयोगस्य अध्यक्षेण सलीमिया अन्सारी इत्याख्येन च शुभकामना सन्देशः प्रदत्तो वर्तते। काष्ठमण्डप जनपद न्यायालयेन बालवाटार वर्तिन्यः ललिता निवास भूम्या प्रकरणे निगृहितान् चतुरः जनान् सप्त दिनानि निग्रहणे स्थापयित्वा अनुसन्धानं विधातुं प्रहरिणे अनुमतिः प्रदत्तास्ति। इति समाचारः।